विद्वत्सेवोत्कसौभरिर्नाम पूर्वं काळिन्द्यन्तः द्वादशाब्दं तपस्यन् मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षात् ऐक्षताग्रे कदाचित् त्वद्बाहं तं सक्षुदं तृक्षसूनुं मीनं कञ्चित् जक्षतं लक्षयन् सः तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता तस्मिन् काले कालियः क्षेलदर्पात् सर्पारातेः कल्पितं भागम् अश्नन् तेन क्रोधात् त्वत्पदाम्भोजभाजा पक्षक्षिप्तः तद्दुरापं पयोगात् घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षाः विक्षताः क्षेलवेगात् पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनः तेन जातं काले तस्मिन् एकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तं त्वयि उद्दामग्रीष्मभीष्मोष्मतप्ताः गोगोपालाः व्यापिबन् क्षेलतोयं नश्यज्जीवान् विच्युतान् क्ष्मातलेतान् विश्वान् पश्यन् अच्युता त्वं दयार्द्रः प्राप्योपान्तं जीवयामासिथद्राक् पीयूषाम्भो वर्षिभिः श्रीकटाक्षैः किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेषु इति उत्थिता गोपसङ्घाः दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तः त्वामालिङ्गन् दृष्टनानाप्रभावाः गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दाः त्वां च दृष्ट्वा पुरस्तात् द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः रोमाञ्चोऽयं सर्वतो न शरीरे भूयसी अन्तः काचित् आनन्दमूर्च्छा आश्चर्योऽयं क्षेलवेगो मुकुन्देति उक्तो गोपैः नन्दितो वन्दितो भूः एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्गैः अस्तरोगान् तनोषि तादृग्भूतस्फीतकारुण्यभूमा रोगात्पायाः वायुगेहाधिनाथा ॐ तत्सदिति श्रीमन्नारायणीये चतुःपञ्चाशं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।